श्री गणेशाय नमः। अस्य श्री राम रक्षा स्तोत्र मंत्रस्य बुध कौशिक ऋषिः श्री सीता रामचंद्रो देवता अनुष्टुप छंदः सीता शक्तिः श्रीमद् हनुमान कीलकम् श्री रामचंद्र प्रीत्यर्थे जपे विनियोगः तद्ध्यानम् ध्यायेदाजानुबाहुम् धृतशरधनुषम् बद्धपद्मासनस्थम् पीतं वासो वसानं नवकमलतलस्परधिनेत्रं प्रसन्नं वामाङ्कारूढसीता मुखकमलमिलल्लोचनं नीरदाभं नानालङ्कारदीप्तं दधतमुरुजटा मण्डलं रामचन्द्रम् चरितं रघुनाथस्य शतकोटिप्रविस्तरम् एकैकमक्षरं पुंसा महापातकनाशनम् ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् जानकी लक्ष्मणोपेतं जटामुकुटमण्डितम् सासीतूणधनुर्बाण पाणिं नक्तं चरान्तकम् स्वलीलया जगत्रातुर्माविर्भूतमजं विभुम् राम रक्षां पठेत् प्राज्ञा पापग्निं सर्वकामदां शिरो मे राघव पातु भालं दशरथात्मजः कौसल्येयो दृशो पातु विश्वामित्रप्रियश्रुति घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः जिह्वा विद्यानिधि पातु कण्ठं भरतवन्दितः स्कन्धो दिव्यायुध पातु भुजो भग्नेशकार्मुकः करो सीतापति पातु हृदयं जामदग्न्यजित् मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः सुग्रीवेशकटी पातु शक्तिनि हनुमत्प्रभु ऊरुरघुत्तम पातु रक्षकुलविनाशकृत जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः पादो विभीषण श्रीद पातु रामोऽखिलं वपुः एतां रामबलोपेतां रक्षाय सुकृतिं पठे सचिराय सुखी पुत्री विजयी विनयी भवेत् पातालभूतलव्योम चारिणश्चद्मचारिणः न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभि रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति जगज्जयत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् यः कण्ठे धारयेतस्य करस्ता सर्वसिद्धयः वज्रपञ्जरनामेदं यो रामकवचं स्मरेत् अव्याहतान्य सर्वत्र लभते जयमङ्गलम् आदिष्टवान् यथा स्वप्ने राम रक्षामि मां भरः तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः आरामकल्पवृक्षाणां विराम सकलापदाम् अभिराम श्रीलोकानां राम श्रीमान् सन प्रभु तरुणो रूपसम्पन्नो सुकुमारो महाबलो पुण्डरीकविशालाक्षो चीरकृष्णाजिनाभरो फलमूलाशिनो दान्तो तापसो ब्रह्मचारिणो पुत्रो दशरथश्चेतो भ्रातरो रामलक्ष्मणो शरण्यो सर्वसत्त्वानां श्रेष्ठो सर्वधनुष्मता रक्षकुलनिहन्तारो त्रायेतां नो रघुत्तमो आतसज्जधनुषा विश्वशा वक्षया शुगनसङ्गसङ्गिनो रक्षणाय मम रामलक्ष्मणावृतपति सदैव गच्छताम् सन्नन्ध कवची खड्गी चाप बाण धरो युवा गच्छन्न मनोरथोऽस्माकम् रामः पातु सुलक्ष्मणः रामो दाशरथि शूरो लक्ष्मणा न चुरो बली काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमः वेदान्तवेद्यो यज्ञेश पुराण पुरुषोत्तमः जानकी वल्लभ श्रीमान् प्रमेय पराक्रमः इत्येतानि जपे नित्यम् मद्भक्तः श्रद्धयान्वितः अश्वमेधाधिकम् पुण्यम् सम्प्राप्नोति न संशयः रामम् दुर्वादलः श्यामम् पद्माक्षम् पीतवाससम् स्तुवन्ति नामभिर्दिव्यैर्नते संसारिणो नरः रामम् लक्ष्मण पूर्वजम् रघुवरम् सीतापतिम् सुन्दरम् काकुत्स्थम् करुणार्णवम् गुणनिधिर्विप्रप्रियम् धार्मिकम् राजेन्द्रम् सत्यसन्धम् दशरथतनयम् श्यामलम् शान्तमूर्तिम् वन्दे लोकाभिरामम् रघुकुलतिलकम् राघवम् रावणारिम् रामाय रामभद्राय रामचन्द्राय वेधसे रघुनाथाय नाथाय सीताया पतये नमः श्रीराम राम रघुनन्दन राम राम श्रीराम राम भरताग्रज राम राम श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणं भव राम राम श्रीरामचन्द्र चरणो मनसा स्मरामि श्रीरामचन्द्र चरणो वचसा गृणामि श्रीरामचन्द्र चरणो शिरसा नमामि श्रीरामचन्द्र चरणो शरणं प्रपद्ये माता रामो मत्पिता रामचन्द्रः स्वामी रामो मत्सखा रामचन्द्रः सर्वस्वं मे रामचन्द्रो दयालुः नान्यं जाने नैव जाने न जाने दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा पुरुतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् लोकाभिरामम् रणरङ्गधीरम् राजीवनेत्रम् रघुवंशनाथम् कारुण्यरूपम् करुणाकरम् तम् श्रीरामचन्द्रम् शरणम् प्रपद्ये मनोजवम् मारुततुल्यवेगम् जितेन्द्रियम् बुद्धिमताम् वरिष्ठम् वातात्मजम् वानरयूतमुख्यम् श्रीरामदूतम् शरणम् प्रपद्ये कूजन्तम् राम रामेति मधुरम् मधुराक्षरम् आरुह्यः कविता शाखा वन्दे वाल्मीकि कोकिलम् आपदामपहरतारम् दातारम् सर्वसम्पदाम् लोकाभिरामम् श्रीरामम् भूयो भूयो नमाम्यहम् भरजनम् भवबीजानाम् मर्जनम् सुखसम्पदाम् तर्जनम् यमदूतानाम् राम रामेति गर्जनम् रामो राज्यमणिः सदा विजयते रामम् रमेशम् भजे रामेणाल्यतानि चाचरचरम् रामाय तस्मै नमः रामानास्ति परायणम् परतरम् रामस्य दासोऽस्म्यहम् रामे चित्तलयः सदा भवतु मे भो रामामुद्धर राम रामेति रामेति रमे रामे मनोरमे सहस्रनामतुल्यम् राम नाम वरानने इति श्रीबुधकौशिकविरचितम् श्रीरामरक्षास्तोत्रम् सम्पूर्णम् श्रीसीतारामचन्द्रार्पणमस्तु जय जय रघुवीर समर्थ।